वासी नारायणस्य स्वरूपम् त्वमेवासी मूलाक्षरं च प्रयागम् त्वमेवासी शास्त्री च योगी स्वरूपम् चिरंजीव स्वामिन् शतं जीव स्वामिन् चिरंजीव स्वामिन् शतं जीव स्वामिन्।